इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः भुवनेश्वरे आयोजितस्य अखिल भारतीयारक्षि महानिदेशक महानिरीक्षक सम्मेलनस्य अन्तिमे दिवसे देशस्य विभिन्नैः राज्यैः केन्द्रशासित प्रदेशैः च सह सम्बद्धेषु महत्वपूर्णेषु सुरक्षाविषयेषु चर्चां कृतवान्। प्रधानमन्त्री अत्रावसरे अन्तर्जालीयापराधानां निरोधनं तटीयसुरक्षां माओवादोग्रवादस्य उन्मूलनं च अभिलक्ष्य रणनीति निर्धारणाय स्वमतं प्रकाशितवान्। अस्मिन् त्रिदिवसात्मके सम्मेलने कृत्रिम बुद्धिमत्तया ड्रोन सदृशी प्राविधिकिभिश्च उत्पन्नानि समाह्वानानि सम्मुखीकर्तुम् आतंकवादरोधि रणनीतिं च निर्मातुं रक्षीबलस्य शीर्षाधिकारिभिः विभिन्नैः सुरक्षाभिकरणैः सह चर्चा जाता। प्रधानमन्त्री अत्रावसरे अधिकारिभ्यः विशिष्ट सेवायै राष्ट्रपति आरक्षि पदकानि अपि प्रदत्तवान्। एतस्मिन् सम्मेलने केन्द्रीयः गृहमन्त्री अमितशाहः गृहसचिवः गोविन्दमोहनः राष्ट्रिय सुरक्षा परामर्शदः अजीतडोभालः च उपस्थिताः आसन्। मरुस्थलीकरणस्य निवारणार्थं संयुक्तराष्ट्रसम्मेलनस्य षोडशं सत्रम् अद्य सऊदी अरबस्य रियादनगरे कॉन्फ्रेंस ऑफ पार्टी इति कॉप 16 आरभ्यते। भारतमपि अस्मिन् ऐतिहासिके कार्यक्रमे 97+ देशानां प्रतिनिधिभिस्सह सम्मिलितं भविष्यति। पर्यावरणमन्त्री भूपेन्द्रयादवः हरियाणायाः च मुख्यमन्त्री नायब सिंह सैनी भारतस्य प्रतिनिधिमण्डलत्वेन उद्घाटनदिवसे भागं ग्रहीष्यतः। राष्ट्रपतिः पदासीना द्रौपदी मुर्मुः श्वः अन्ताराष्ट्रिय दिव्याङ्गदिवसे निःशक्तजनानां सशक्तीकरणाय राष्ट्रिय पुरस्कारं प्रदास्यति। अत्रावसरे आहत्य 22 जनेभ्यः 11 च संस्थानेभ्यः राष्ट्रिय पुरस्कारो अयं प्रदास्यते। सामाजिक न्याय अधिकारिता मन्त्री डॉ वीरेन्द्र कुमारः अपि अस्मिन् अवसरे दिव्याङ्गजनानां कल्याणार्थम् अनेकेषाम् उपक्रमाणाम् अनावरणं विधास्यति। अमरजैनः 24+2000 सर्वश्रेष्ठ दिव्याङ्गजनस्य श्रेण्यां स्व उत्कृष्टतायै राष्ट्रिय पुरस्कारं प्राप्स्यति। अमरजैनः स्वप्रेरणाप्रदानयुतां जीवनकथां व्यञ्जयत् असौ 100% दृष्टिदोषयुतः विधिवेत्ता अस्ति। प्रतीक खण्डेलवालः अपि अस्मिन् अवसरे राष्ट्रिय पुरस्कारेण पुरस्कृतो भविष्यति। दिल्ल्याः पूर्व मुख्यमन्त्री आपदलस्य च संयोजकः अरविन्द केजरीवालः आगामिनि विधानसभा निर्वाचने स्वदलस्य कस्यैश्चित् संयुतये अस्वीकृतिं प्रदत्तवान्। एकस्मिन् वार्ताहर सम्मेलने असौ स्ववक्तव्यं मतञ्च कथितवान् आप इति दलम् आगामिने विधानसभा निर्वाचनाय प्रथमां सूचीम् अपि प्राकाशयत्। अत्रावधौ कांग्रेस दलेनापि आम आदमी पार्टीति दलेन सह स्वसंयुतिः निराकृता। ह्यः राष्ट्रिय राजधान्यां दिल्ल्यां कांग्रेस दलस्य दिल्ली प्रदेशाध्यक्षः देवेन्द्र यादवः सूचितवान् यत् 70 विधानसभासनेभ्यः कांग्रेस दलस्य सर्वे प्रत्याशिनः योत्स्यन्ति इति। तमिलनाडु राज्ये अतिवृष्ट्या स्थितिः गभीरा जायमानास्ति। विल्लुपुरम तिरुवन्नामलाई मैलादुथुराई वेल्लोर रानीपेट जनपदेषु फेंजल चक्रवातस्य कारणेन महती हानिरपि दृष्टा। तिरुवन्नामलाई इत्यत्र पर्वतेषु गतरात्रौ बृहत्तमानि पाषाणखण्डानि पतितानि येन अनेकानि गृहाणि विनष्टानि। अपि च सैयद मोदी अन्ताराष्ट्रिय बैडमिण्टन स्पर्धा मालिकायां महिलैकल वर्गीयं द्वन्द्वं भारतीय बैडमिण्टन तारिकया पीवी सिन्धुना विजितम्। लखनऊनगरे ह्यः महिलानां एकल वर्गीय स्पर्धा श्रृंखलायाः निर्णायकचक्रे पीवी सिन्धुः चीन देशीयां प्रतिद्वन्दिनीं वू लुओ यू इत्येतां पराजितवती। अपरतः ह्यः एव पुरुषाणाम् एकलवर्गे निर्णायकचक्रे भारतस्य लक्ष्यसेनः सिंगापुरदेशीयं जिया हेन जेसन तेहं पराजित्य विजयम् अधिगच्छत् इति वार्ताः।